एकदन्तं महाकायं तप्तकाञ्जन सन्निभं लम्बोदरं विशालाक्षं वन्देहं गणनायकं मुदाकरात्तमोदकं सदा विमुक्ति साधकं कलाधरावतंसकं विलासिलोकरक्षकं अनायकैकनायकं विनाशिदेव दैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम्। नदीतरातिभीकरं नवोदितार्कभासुरं नमत्सुरारि निर्जरं नताधिकापदुद्धरं सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम्। समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं दरेतरोधरं वरं वरे भवत्रमक्षरं कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतं नमस्करोमि भास्वरम्। अकिञ्जनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणं प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारिणं भजे पुराणवारणम्। नितान्तकान्तदन्तकान्तिमन्दकान्तकात्मजम् अचिन्त्यरूपमन्दहीनमन्दराय क्रन्दनं हृदन्तरे निरन्तरं वसन्तमेव योगिनं तमेकदन्तमेकमेव चिन्तयामि सन्ततम्।